अयम् स यस्यभिरग्नेरेधदेशिताभिष्टौ ज्येष्ठेभिर्यो भानुभिर्विषूणाम् पर्येति परिवीतो विभावाः यो भानुभिर्विभावाः विभात्यग्निर्देवेभिर्वृतावाजस्रः आयो विवाज सख्या सखिभ्योपरिकृतो अत्यो न सप्तीः ईशेयो विश्वस्य देवदी तेदीशेः विश्वायोर्षोऽव्योष्टौ आयस्मिन् मनाहवीं शग्नावरिष्ठरथस्कध्नाति सूषैः सूषेभिर्वृतो जूषाणो अर्कैर्देवाङ्गच्छारुभवत्वादि मन्द्रोः दासजुक्वायुक्षरसं विश्वो अग्निराजीघत्तिदेवान् नभुस्रामिन्द्रम् नरेजमानमग्निम् येभिर्नमोभिराकृणुध्वम् आयम् विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वम् सहानाम् संयस्मिन् विश्वापसो निजग्मर्वाजेनाश्वासप्तीमन्दये वैः अस्मे भूतीरिन्द्रवाततमार्वाधीना अग्नाग्रेणुष्व अधाह्यग्ने मह्नानिषद्या सद्यो जज्ञानो हव्यो बभूथ तन्वे देवासो अर्गेतमायन्नथा वर्धन्तः प्रथमासभूमाः स्वस्ति नो दिवो अग्ने पृथिव्याश्वायद्धेहि यजथाय देव स चेमहितपदस्त्वप्रकेतैरोरुष्यान गुरुभिर्देव संसैः इमाग्ने मतयस्तुभ्यम् जाता गोभिरस्वैरभिगृह्णन्ति राधाः यदा देवत्तो अनुभोगमानड्वसो दधा नो मतिभिस्तु जाता अग्निम् मन्ये पितरमग्निमाभिमग्निम् भ्रातरम् सदमित्सखायम् अग्नेरनीकम् बृहतः स वर्यम् दिवि शुक्रम् च जतम् सूर्यस्य सेधा अग्ने धियो अस्मे सनुत्रीर्यन्त्राय सेदमानित्या होता ऋता वासरोहितः स्वपुरक्षुर्जुभिरस्माहभिर्वाममस्तु युभिर्हितम् मित्रमेव प्रयोगम् रत्नमृत्विज मध्वरस्य जारम् बाहुभ्यामग्निमायभोजनन्दभिक्षुहोतारम् न्यासादयन्त स्वयम् यजस्व दिविदेव देवान् किम् ते पाकः कृणवदप्रचेताः यथा यजऋतुभिर्देवदेवानेवायजस्व तन्वम् सुजात भवानो अग्ने वितोत गोपा भवा भजस्कृतुतमो वयोधाः रास्वाजनः सुमहो हव्यता तिन्त्रास्वोदनस्तन्वो अप्रायुच्छन् बृहता जात्यग्निरारोदसी वृषभोरोरवीति ीवस्थिलन्तामुपमामुदानलपामुपस्थे महिषोपाबद्ध मुमोदगर्भो वृषभक्रगुद्मानस्रेमावत्सश्यमीवाम्बरावीत् स देवताद्युद्यतानि गृह्वान्ते ऋक्षजेषु प्रथमो जिगाति आयोर्धानम् वित्रोरधान्यध्वरेदधिरेशूरो अन्नाः अस्य पद्मन्नरो क्षीरस्व बुद्ध्यार्दस्य यो नौ धन्वो जुषन्त उषवोषो हि वासो अग्रमे ऋतुरम् यमयोरभवो विभावाः ऋताय सप्तदधिके पदानि जनयन् मित्रम् तन्वे चक्षुर्महृतस्य गोपा भुवो वरो नो यहृता जवेषि भुवो अपान्नपाद्यादवेदो भुवो धूतो यस्य हव्यम् विजोषः भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिश्च च से शिवाभिः दिविभोर्धानम् लभिषे स्वर्षाम् जिह्वामग्ने च कृषे हव्यवाहम् अस्यत्रतक्रतो नाभव्रे अन्तरिच्छन्धीतिम् पितुरे वैः परस्य सदस्य मानपित्रोरुपस्थे जामिब्रूवाण आयुधानि वेति स्वपित्र्याण्यायुधानि विद्वानिन्द्रे हृद आप्यो अभ्ययुध्यत् शीर्षाणम् सप्तरस्मिन् जघन्वान् त्वाष्टस्य चिन्निस्सृजेतुराः भूरीरिन्द्र उदिलक्षम् तमोजो वाभिनत्सत्त्वधर्मन्यमानम् त्वाष्टस्य चिद्विश्वरूपस्य गो नामाचक्राणस्त्रीणि शीर्षापरावक् आपोधिष्ठामयो भुवस्तान भूर्जेदधातन महेरणाय चक्षासे यो वशिवदमोनसस्तस्य भाजयते हनाः उषदीरिव मातराः तस्मारङ्गमामभोजस्य क्षयाय जिन्वथ आवो जनजथा जनः शन्नो देवीरभिष्टय आपो भवन्तु पीतये संयोरभिश्रवन्तु नः ईशानावार्याणाम् क्षयन्ति स्तर्षणीनाम् अपोजामि भेषजम् वत्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्निम् च विश्वसम्भुवम् आपप्रणीतभेषजम् वरोधम् तन्वे हे मम योच्चसूर्यम् दृशे इदमापप्रवाहत यत्किञ्च दुरितम् मयि यद्वाहमभिजद्रोह यद्वा शेप उदारृतम् आपो अद्यान्वाचारिषम् वसेन समागस्महि वयस्वानज्ञागहितम् मा संसृजवर्चसा सशृषेस्तदपसोदिभानक्तञ्च सशृषीः वरेण्यक्रतोरहमा देवीरवसेहुवे को चित्सखायम् सख्यावृत्याम् धिरः पुरोचिरन्नवम् जगन्वान् विदुर्नपातमादधीतभेदाधिक्षमिप्रतरम् दीर्घानः न ते सखाः सख्यम् वष्ट्येतत्सलक्ष्मा यद्विषूरूपा भवादि महस्पुत्रासो असूरस्य वीरादिवो धर्तारवर्भिया परिख्यम् उषन्दीघाते अमृता स एतदेकस्य नित्यज सम्मर्त्यस्य इदेव नो मनसि धायस्ते जन्योपतिस्तन्वा अमावीविश्याः नयत्पुरा च कृमागद्ध नूनमृता वदन्तो अमृतम् रमेम गन्धर्वो अप्सुर्या च योषासानो नाभिः परमम् चामि तन्नौ गर्भेणनौ जनिता दम्पादी गर्भेवस्त्वष्टा सविता विश्वरूपः वीरस्य प्रवीरम् देव्रता निवेदराभस्य पृथिवी उतद्यौः को अस्य वेद प्रथमस्यान्नः कयीन्द्रदर्शकैः प्रवोचत् ृहन्नेत्रस्य वरुणस्य धाम कदुब्रवाहनो वीच्यान् यमस्य मायम्या अङ्कामागम् समाने यो नौ सहसेयाय जायेन पत्ये तन्नम् विविच्यामि चिद्गृहे वरत्येव चक्रा न तिष्ठन्ति न निमीषन्त्येते देवानाम् स्वसजिहये चरन्ति अन्येन मदाहनो याहितूयम् तेन विगृहरथ्येव चक्रा रात्रीभिरस्माभिर्दशस्येत् सूर्यस्य चक्षुर्मुहुरन्मीयात् दिवाले शिव्यामि सुगासबन्धूयमीर्यमस्य विव्रियादजामि आघाता गच्छानुत्तरायुगानि यत्र जामयः कृणवन्न जामि उपबर्भृहिवृषभाय बाहुमन्यमिच्छस्वसुभगे पतिम् मत् किम् भ्राता सद्यदनाथम् भवादिगिमस्वसायन्निर्वेदम् निगच्छात् कामामूता बह्वे ये एतद्रवामि तन्वामे तन्वा अंसं विवृद्धि नवाहूते तन्वा तन्वा अंसं पवृच्छां पापमाहुर्यस्वसारं निगच्छात् अन्येन प्रमुदः कल्पय स्वनते भ्रादा सुभगे मह्येतत् वतो वदासि यमनैव देवनो हृदयं चाविदाम अन्या किल त्वां कक्षेव युक्तं वरिष्वजातेन पूजेव वृक्षम् अन्यमूरुत्वयम् यन्यभूत्वाम् वरिष्वजातेन पूजेव वृक्षम् तस्य वा त्वम् मन इच्छा स वातमाधाकरिष्व संविदम् सुभद्रा वृषा वृष्टेदुहेदोह सा दिवः पराम् दिवः को अधीतेरदाभ्यः विश्वम् दरेदपरो नो यथा धिया स यज्ञयो यजतु यज्ञियाम् क्रतून् रपग्रम् धर्वीरप्या जयोषनादस्य नादे परीपातु मे मनाः युष्कस्य मध्ये अधिनिधातु नो भ्राता नो ज्येष्ठ प्रथमो विवोचति सोऽजिन्नु भद्राक्षुमधीयशस्वत्युषा भूवासमनभे स्वर्वति यदि मुसन्तमुसतामनुक्रतो मध्यम् होदारम् विदधा यजीजानन् अधत्यन्द्रत्सम् विध्वम् विचक्षणम् विराभरदिषिदस्येनो अध्वरे यदि विशो वृणते तस्ममार्या अग्निम् होदारमधीरजायत सदा शिरण्वो यवासे वपुष्य देहोत्राभिरग्ने मनोरस्वध्वरः विप्रस्य वायच्छ समानमुख्याम् वाजम् स सवाम् उपयासि भूरिभिः पितराजारा भगमयक्षति हर्यतो हृत्तयिष्यति विभक्तिवह्निः स्वपश्यते मखस्तविष्यते असूरो वेपते मति यस्ते अग्ने सुमतिम् मत्सो अक्षसहसूरो अधिसप्रसन्ने इषम् दधा नो महवानो अस्वैरासद्युमाङ्गमवान्भूषदिद्यून् यदग्नजेषा सुमितिर्भवादि देवी देवेषु यजता जयत्र नरत्रा जयद्विभजासि स्वधामो भागम् नो अत्र वसुमन्त्रम् वीतात् श्रुधीनो अग्ने सदने सदस्थे युक्ष्वारसममृतस्य द्रभित्रम् आनो महरोदसी देवपुत्रे माकिर्देवा नाम बभूरिहस्याः या वा रक्षा मा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचाः देवो यन्मर्तान्यजथा य कृण्वन्सि दद्धोता प्रत्यम् स्वमसंयन् देवो देवान् परिभोर्हृतेन महानो हव्यम् प्रथमस्ति जित्वान् धूमकेतः समिधा भर्जीरो मन्द्रोः दानित्यो वाचा यजीयान् स्वाहृद्देवस्यामृतम् यदि गोरतो जातासो धारयन्त पूर्वी विश्वे देवानुदरद्ये यजर्गर्दृहे यजेनी दिव्यम् घृतम् वा अर्चामि माम् वर्धायापो घृतस्नोद्या वा भूमि शृणुतम् रोदसी मे अहायद्यावो सूनीतिमजन्मध्वानो अत्र पितरासि सीताम् किम् सिन्नो राजा जगृहे कथस्यादिम् व्रतम् च कृमा को विवेद मित्रश्चिद्धिष्माजुहुरानो देवान् श्लोको न जातामभिवाजो अस्ति दुर्मन्वत्रामृतस्य नाम सलक्ष्मायद्विषूरोपा भवादि यमस्य यो मनवादे सुमन्वद्वेदमृष्वभाष्य प्रयुच्छन् यस्मिन् देवा विदधे मातयन्ते विवस्वतः सदा मे धारयन्ते ज्योतिरतधर्मास्यान्परिज्योतनिम् च रतो अजस्रा यस्मिन् देवामन्मानि सञ्चरम् च वीच्ये येन वयमस्य विद्मा विमितो नोऽत्रादीतिरनागाम् सविता देवो वरुणाय वोचते श्रुधीरो अग्ने सदने सदस्ते युक्ष्वानसमृतस्वद्रपित्रम् आनो वररोदसी देवपुत्रे माजद्देवानामपभूरिकस्याः जेवाम् ब्रह्म भूर्यम् नमोभिर्विश्लोकयेतु पथ्येम सूरेः शृण्वन्त विश्वे अमृतस्य पुत्राये धामानि दिव्यानि तस्थुः येमे वयतमाने यदैतम् प्रवाम् भरन्मानुषा देवयम् ताः आसीदतम् सोमो लोकम् विदाने स्वादस्ते भवदमिन्दवेगः पञ्चपदानि रुपो अन्वरोहम् चतुष्पदीमन्वे बिभ्रतेन अक्षरेण प्रतिविमयेतामृतस्य भावधि सम्पूनामि देवेभ्यः क्रमवृणीतभृत्यम् प्रजायैकमृतम् नावृणीत बृहस्पतिम् यज्ञमजन्मदर्शिम् प्रियाम्यमस्तन्वारीरेशीन् सप्तक्षरम् दिशिदे मरुत्वा ते पित्रे पुत्रा सोऽप्यवीवतम् कृतम् उभेयदस्योभयस्य राजत उभेयदेते उभयस्य पुष्यतः हरे युवांसम् प्रवतो महीरलो बभुभ्यः पन्थामनपस्पसानम् वैवस्वतम् सङ्गमनम् जनानाम् यमम् राजानम् हविषादुवस्य यमोनागातुम् रसमो विवेदनैषारव्योतिरपभर्तबाहु यत्रा नः पूर्वे पितरः परेयुरेणाजिज्ञानापचरा स्वाहा मादलीकव्यैर्यमो अङ्गीरोभिर्बृहस्पतिर्वृक्वभिर्वाभिधानः याम् च देवा पृथिव्ये च देवान् स्वाहान्ये स्वधयान्ये वदन्ति इमन्यमप्रस्तरमायिषीयाङ्गीरोभिः पितृभिः संविधानः आत्मावन्द्राकविधस्तावारम् वेलराजङ्गविषामादयस्व अङ्गीरोभिरागहि यज्ञैर्यमावैरूपैरिहमादयस्व तिलस्वन्दम्भुवेल पितादयस्मिन् अङ्गीरसो न पितरो न वद्वा सर्वाणो भगवः सोम्यासाः तेषाम् वयम् सोमतौ यज्ञियानामपि भद्रेतौ मनसे स्याम प्रेहि प्रेहि पतिभिः पूर्वेभिर्यत्रा नः पूर्वे पितरः परेयुः उभारायानाश्वधयामदन्तायमम्बस्यासि वरुणम् च देवम् सङ्गच्छस्व पितृभिः संयमेनेष्टा पूर्तेन परमेभ्यो वन् हित्वाया भद्यम् पुनरस्तमेभि सङ्गच्छस्व तन्वा सुवर्चाः अपेदवीतपि च सर्वदातोऽस्मायेतम् पितरो लोकमक्रन् अहोभिरद्भिरक्तभिर्व्याक्तम् यमोददात्यवसानमस्मै अनिद्रवसारमेयौ स्वानौ चतुरक्षौ सभरौ साधुना पथा अथा पितृन्सु विदत्ताङ्गुबेहिमेन ये स धमादम् वदन्ति यौ ते स्वानौ यमरक्षितारौ चतुरक्षौ पथिरक्षी विचक्षसौ ताभ्यामेनम् वरि देहि राजन् स्वस्तिलास्मानमेवम् च धेहि पुरो न सावसुदृपाबुदम् बलौ यमस्य दूतौ च रतो जनाम् खलु तावस्मभ्यम् दृशये सूर्याय पुनद्दातावसु मध्येह भद्रम् यमायजोऽयमायजुहुताहविः यमङ्घयज्ञो गच्छत्यग्निहोतोऽहरम् कृतः यमाय घृतवद्धविर्जुहोदप्रचतिष्ठत स नो देवेश्वाय मद्दीर्घमाय प्रजीवसे यमाय मधुमत्तमम् राज्ञे हव्यम् जुहोदन इदन्नमरिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पचिकृद्भ्यः त्रिगद्रुगेभिपदिषुर्वीरे कविद्बृहद् त्रिष्टुगायत्री सन्दांसर्भाताय महाहीता उदीरतामवरमुत्परा समुन्मध्यमा पितरः सोम्यासाः ीरविकारिदज्ञास्ते बन्धुमितरो भवेषु इदम् विदुभ्यो नमो अस्मद्यये पूर्वासोऽयमुपरासयीयुः ये वाक्षीवेन जस्याविषत्ता ये वा नूनम् सुवृजनासु भिक्षु आरम्भेन् सुविदत्राङ्गमिच्छिरपादन्त विक्रमाणम् च विष्णोः ये सुधया सुदस्य भजन्त वित्तस्त इहागाविष्टाः गरीरभूत्यार्वाजिमावो हव्या च कृमाजुषध्वम् तथागतावसासङ्क्रमेणाथाः नः संयोररपोदधात उपाहूता पितरः सोम्यासो बलिभिष्येषु निधिषु प्रियेषु आगमन्तु दैहस्रो भन्वधि ब्रुवन्तु ते भन्वस्मान् आचारानो दक्षिणतो निरद्येवम् यज्ञभिरेणीकविश्वे आयुम् दृष्टवितरक्तेन चिन्मायद्वागः पुरुषदागराम आदीनासो अरुणीनामुपस्थे रयन्धक्तदासुषेमत्याय ुदेभ्यः पितरस्तस्य वस्व प्रयच्छतैहोर्जम् दधात येन पूर्वे पितरः सोम्यासो नो हिरे सोमभीतम् वसिष्ठाः एभिर्यमस्रम् रराणो हवीम् शुषन्नुसद्भिः प्रतिकाममत्तु येदात्रादेहमानाहोत्राविदस्तोमदष्टासो अर्कैः ेभिरर्वाम् सद्यै कर्यै पितृभिर्गर्भसद्भिः ये रत्यासो हविरतो हविष्पा इन्द्रेण देवैः सरथम् दधानाः आग्नेयायि सहस्रम् देव वन्दैः परैः पूर्वैः पितृभिर्गर्भसद्भिः अग्निष्वात्ता पितरेह गच्छत सरस्वरस्वरदरुप्रणीतयः अत्रा हवीम् विप्रजाराणि बलिभिश्वधारयम् सर्ववीरम् दधातन त्वमग्नीरितो जातवेदो वाढव्यानि सुलभीनि कृत्वी राधा पितृभ्यः स्वतजाते अक्षन्नद्धि त्वम् देव प्रजाता हवींषि विद्मया त्वम् वेदस्वदाभिर्येद्यम् सुकृतम् युषस्व ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवस्वधया मादयन्ते तेभिः स्वरालसूनीति मेताम् यथापसम् तन्नम् कल्पयस्व मैनामग्नेविदा होमाभिषो चोपाश्रत्तरम् शिक्षिपोपाशरीरम् यदा श्रुतम् कृणवो जातवेदोऽथे मेनम् प्रहीरुदा पितृभ्यः श्रुतम् यदा करसि जातवेदोऽथे मेनम् परीदत्तात् पितृभ्यः यदा गच्छात्यसूनीति मेतामथाः देवानाम् वशनीर्भवादि सूर्यम् चक्षुर्गच्छतु वातमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अवो वा गच्छ यदि तत्र देहि नमोषधीनप्रतिष्ठा शरीरैः अचो भागस्तव सातम् तपस्वतम् दे शोचिस्तपदम् दे अर्चिः यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनम् सुकृतामलोकम् अवजगपुरारक्ते पितृज्योगस्ताभूतश्चरादिस्वदाभिः आजुर्वसारमुपवेदसे सङ्गच्छताम् तन्वा जातवेदः ृष्टद्विस्वादगतङ्गेणोदसोमश्चयो ब्राह्मणाङ्गाभिवेश अग्नेर्वर्मपरिगोभिर्व्ययस्वसंभ्रोर्नुष्वीव सामेधराज ृष्णर्हर साजर्वेणानोदशिग्विधक्षम् पर्यङ्खयादे इमाग्नेतपसम् मा विजिह्वरप्रियो देवानामुत सोम्यानाम् एषयश्च वसो देवपादस्तस्मिन् देवामृतामादयन्ते द्रव्यादमद्यम् रहीणो मिदूरम् यमराज्ञो गच्छदरे प्रवाहः इहैवालमितरो जातवेदा देवेभ्यो हव्यम् वहतु प्रजानन् यो अग्निक्रव्यात्रादिवेशवो गृहमिमम् पश्चरन्नितरम् जातवेदसम् सङ्घरामि पितृयज्ञाय देवम् स कर्ममिन्वात्परमेदधस्ते यो अग्निक्रव्यवाहनः पितृक्षताः वेदो हव्यानि वोचति देवेभ्यश्च पितृभ्यः समीधीमहि उसन्नो सदावहमिदे अत्तवे जन्ममग्ने समदहस्तमुनिर्वापयामुनाः याम् वद्रारोहदुपाकदूर्वाव्यल्कसा शीतिके शीतिकापतिह्लादिके ह्लादिकापति मण्डोक्या आसुरङ्गमजिमम् स्वा अग्निम् भर्भय पृष्टादुहित्रे वागदन्द्रे नोदीलीलम् विस्तम्भुवरम् समेति यमस्य माता भर्गमानामहोराजाभिवस्वतो नाथ अपागोहन्नमृताम् मर्त्येभ्यः कृत्वी समरम् नामदुर्विवस्वते उदास्विनामभरद्यद्वामीसरण्योः ऊढाद्वेदस्यावयवप्रभिद्वाननष्टपशुर्भुवनश्च गोपाः सत्वैतेभ्यः परीदत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः आयुर्विश्वायपरीपादयित्वा भूषा त्वापादप्रपाथे पुरस्तात् यत्रा स ते सुकृतो यत्र ते ययस्तत्र त्वा देवः स विजादधातु भूषे मासानु वेद सर्वासो अस्मान् अभयतमेन नेषत् स्वस्तिकाग्रे सर्ववीरो प्रयुच्छन् पुरदेव प्रजानन् प्रभासे पथामजनिष्टभूषा प्रभासे दिवः प्रभासे पृथिव्याः उभे अभिप्रियत मे सहस्ते आशपराजचरदिप्रजानन् सरस्वतीम् देवयन्तो हमन्ते सरस्वतीमध्वरे ताजमाने सरस्वतीम् सुकृतो अक्वयन्त सरस्वती दासुषेवार्यन्दात् सरस्वतीया सरसम् स्वताभिर्देवि पितृभिर्मदन्ति आसद्यास्मिन् बर्हिणे मादयस्व न मेवायुषाधेष्यस्मे सरस्वतीम् याम् पितरोहम् देयक्षिणा यज्ञमभिरक्षमाणाः सहस्रार्घभिरो अत्र भागम् राजस्फोटम् यजमानेषु देहि आपो अस्मान् मातरः सुन्धयन्तु घृतेन नो घृतत्वः पुनन्तु हे स्वङ्गेत्रम् प्रवहन्ति देवीभ्यस्विरा भूतयेमि रत्सस्तस्कन्दप्रथमाम् अनुद्यो निमञ्चयो निमनुजश्च पूर्वाः समानम् योनिमनु सञ्चरन्तम् रत्सम् जुहोम्यनु सप्तहोत्राः यस्ते द्रत्सस्कन्दस्ते अंसर्बाहुच्युतोऽधिगणाय उपस्थात् अध्वर्योर्वाग्रीवायः परित्रात्तम् देजो विपनसावषट्कृतम् यस्ते दत्तस्कन्नो यस्ते अंसुरवस्थयः परस्वृचा अयम् देवो बृहस्पतिः सन्तम् सिञ्चतुराधसे पयस्वधीरोषधयः पयस्वन्मामकम् वचाः अपाम् पयस्वदित्वरस्तेन मा सहसुन्धत परम् मृत्यो अनुपरे हि पन्थाम् यस्ते स्वैतरो देवजानात् चक्षुष्मते शृण्वते देर्ब्रवीमानः प्रजाम् वीरशोमोदवीराय मृत्योः पदम् योपयन्तो यदैतद्राघीयाय प्रतरम् दधानाः आप्यायमानाः प्रजयाधनेन शुद्धाः पूता भवत यज्ञियासः इमे देवा विमृतैराव वृत्रन्नभूद्भद्रा देवभूतिर्नो अद्य प्राञ्चो अगामनृतदेहसा यद्राघीयाय प्रथरम् दधानाः इमम् देवेभ्यः परिधिम् ददामिमैरान्नुगादपरो अर्थमेतम् शरम् जीवन्तु शरदः पुरुषीरन्धर्मृत्युम् दधाम् पर्वतेन यथाञ्जन पूर्वम् भवन्ति यथा ऋतव ऋतभिर्यन्ति साधु तथा न पूर्वमपरोजहात्येवाधातरायूम् विकल्पयैषाम् आरोहतायुर्जरसम् ऋणान पूर्वम् यतमानाय तिष्ठा यत्त्वष्टा सुजनीवासजोषा दीर्घमायुः करति जीवसेवः हिमानारीरविधवा सुमध्वीराञ्जनेन सर्पिषा संविशन्तु अनस्रवोलनैवा सुरत्रारोहनयो निमग्रे उदीर्ष्वनार्यभिजीवलोकम् गदासु वेदमुपशेषयेहि हस्तग्राभस्य दीर्षोऽस्तभेदम् वज्रचरित्तमभिसम्बभूथ धनुरहस्रादादारो मृतस्यास्मे क्षत्राय वच्च सेबलाय अत्रैव त्वमिव वयम् सुवीरा विश्वास्पृथो अभिमातीर्देव उपसर्पमातरम् भूमि वेदामोरुग्य च संपृथिवीम् सुसेवाम् पूर्णम् ृदायुपतिर्दक्षिणामदेहात्पादनिर्वृतैरुपस्थात् उच्छन्दस्वपृथिविमानि वा ददा सूपायनास्मै भवसूपवञ्चना मालापुत्रम् यथासि चाभ्येनम् भूमपूर्णिः उच्छन्दमाना पृथिवी सुतिष्ठतु सहस्रम् मितौ बहिस्वयन्ताम् ते घृतो घृतस्तुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र वृत्ते स्तभ्रामिर्भिवीम् त्वत्वरीमम् लोकम् निगधन्मो अहम् रीढम् वेदाम् सूनाम् पितरो धारयम् दुलेत्रायमस्सादनादे विनोतु प्रतीशीले मामहरेश्वाः पर्णविवादधुः प्रतीचीन्द्रग्रभावाचरस्वङ्गसनरायथा भद्रम् न अपि वातरमणाः ओ हरिः ओ निवर्तध्वम् मानुगादास्मांसि रक्तरेवतीः अग्नेमा पुनर्वसु अस्मेधारयतम् रजम् पुनरेणानिवर्तय पुनरेणान्याकूरु इन्द्रयेणानि यच्छत्वग्निरेणामुपाजयतु पुनरेतानि वर्तन्तामस्मिन् पुष्यम् तु गोपतौ इहैवाग्ने निधारयेह तिष्ठतु जारयिः यन्नियानम् ज्ञानम् सम् ज्ञानम् यत्पराजानम् आवर्तनम् निवर्तनम् योगोपाभितम् भूवे यबुदानज्ञयानम् यबुदानत्पराजानम् आवर्तनम् निवर्तनमपि गोपानिवर्तताम् आनिवर्तनिवर्तय पुनर्न इन्द्रगाधेः जीवाभिर्भुनजावहै परीवो विश्वतो दध ऊर्जाघृतेन पयसा ते देवाः के च यज्ञियास्ते रय्याम् द्विजन्तु नः आनिवर्तनवर्तय निनिवर्तनवर्तय भूम्याश्चतस्रः प्रतिशस्ताभ्यायेनानिवर्तय भद्रम् न अभिवादयमनाः अग्निमीरे भुजाञ्जविष्ठम् सादामित्रम् दुर्धरीतुम् यस्वधर्मन् स्वा अरेणे स पर्यन्ति मातुरुधाः भासार्पणीनम् भासाकेतुम् वर्धयन्ति भ्राजते श्रेणीदन् हर्यो विशाम् गातुरे विप्रयदानद्विवो अन्तान् कविरभ्रन्दीध्यानः युषध्रव्यामानुषस्योर्ध्वस्तस्था ऋद्वा यज्ञे मिन्वन् सद्मपुरयेति स हि क्षेमो हरिर्यज्ञसृष्टिदश्च गातुरेति अग्निम् देवावासीमन्तम् यज्ञासाहन्दुपयिषेऽग्निम् पूर्वस्य सेवस्य अग्रे सूनुमायुमाहुः न रोजे के चास्मदा विश्वेत्ते भामास्युः अग्निम् हविषावद्धन्तः कृष्णस्वेतो ऋषो यावो अस्य भ्रद्रहिद्रभुतसो लोजसस्वान् किरण्यरूपम् जनीराजान एवाते अग्ने विमतो मानीषामूर्जो न पादमृतेभिः सजोषाः गिरावक्षत्सुमदीयानैषमूर्जम् सुक्षितम् विश्वमाभाः आग्निन्नस्वृक्तिभिर्होतारम् त्वा वृणीमहे यज्ञायस्तीर्न बलिषे विगोमदे क्षीरम् वा वकसोजिषम् विवक्षसे स्वाभुवः शुम्भञ्जस्वराधसः वेदि त्वामुपसे च नीविगोमधरिजीतिरग्राहोदर्विवक्षसे त्वे धर्मान आसते जुगोभिः सिञ्चतीरिव कृष्णारूपाण्यर्जुना विभोमदेवि स्वाधिश्रियोऽधिषे विवक्षसे चमग्नेमन्यासे रयिम् सहसावन्नमर्त्य तमानो वाजसातये विभोमदे यज्ञेषु चित्रमाभरा विवक्षसे अग्निर्जातो अथर्वणा विदस्विश्वानिकाव्याः भुवद्धूतविवस्वतो विभोमदे प्रियो यमस्य काम्यो विवक्षसे त्वाम् यज्ञेष्वीरतेऽग्ने प्रयत्यध्वरे निकाम्या विभोमदे विश्वासदासि धासुषे विवक्षसे त्वाम् यज्ञेष्वृत्विजम् दारुमग्नेषेधिरे घृतप्रतीकम् मनुषो विभोमदे शुक्रम् चेतिष्ठमक्षभिर्विवक्षसे अग्ने शुक्रेण सोऽतिशोरुप्रथयसे बृहत् अभिक्रन्दम् विषायसे विभोमदे गर्भम् दधासि जामिषु विवक्षसे कुहश्रुत इन्द्र कस्मिन् नद्यजने मित्रो न श्रूयते ऋषीणाम् वायः क्षये भवा वाचक्रेषे गिरा जिहश्रुत इन्द्रो अस्मे अद्यस्तमे वज्रशीषवः मित्रो न योजनेष्वायसश्चक्रे असाम्या महो यस्पतिश्रमसो असाम्या महो नृम्नश्च दूतुजिः भर्ता वज्रस्य दृष्टो पिता पुत्रमेव प्रियम् स्वावादस्य धुनी देवो देवस्य वज्रिवः ిద్వాదశ్రాద్రావహ్యై యోర్దేవోర్విదాయ్యాంగారాగృహం ఆజగ్మతః పరాగాద్దివశ్చగ్మశ్చమర్త్యం ఆయింద్రవృక్షసే స్వాగం బ్రహ్మోద్యతం ేష్టం యన్నమాయుషం అకర్మాదశ్యో అమంతురణ్యంద్రోహమాయుంద్రసూరూరైరుద్రోదాసోగృహణుద్రాదేవి పూర్తయో నమం దక్షోణయో యథా ్రహత్యే చోదయోన్వేంకార్పాణే సూరవద్రివ గుహాయదీకీనాం నక్షత్రసవసాంద్రదారాక్షారే సూరవద్రివ యద్ధృష్ణస్య దంభయో జాతం విశ్వం సయావధి మా బుద్ధ్యైంద్రదూరీరస్మే భూవన్నభిష్టయ వయం వయం దాసాం సుమ్నే శ్యామవద్రివ అస్మే రాత ఇంద్రసంతు సత్యాయుం సంతీరుపస్పృశా విద్యామయాసాం భుజో ధేనూనాన్నవజ్రివ య నవజీవద్ధాస్తంబరి ప్రదక్షిణిశ్వాయ వేదిశ్రదేందోదోమ్మాణవసన్ ఉదత్రాయోపతస్కృతీన యజామహేంద్రం వజ్రదక్షిణం వరీయాభ్యర్థయమానో విరాధసేన్వశయామరే విదేవస్మింద్రో మఘైర్మఘవాభూవత్ ర్వాజర్భుక్షాపత్యసమోక్ష్ణోమిరాసస్యరామజిత్యదాగ్రామిరణ్యమిదారసంహరీయమస్యవహతోపిసూరిధి ఆతిష్టతి మఘభాసనశ్రుతయింద్రోవాజస్సదీర్ఘస్రవసస్పతి స్వచ్చిన్నోచ్చాశ్రూ నిహరీలాభిప్రష్ణుతే అవేది సుక్షయం శ్రుతే మధూదిద్ధూ నో దివాదో యథావనం యో వాచామి వాచో వృద్ధవాజ పురోసహస్రాశీ వాజఘాన తద్దిరస్య పౌంసం గృణేమసి విదేవజస్తవీం వాృధే సవాహ సోమంతయింద్రవిమదాజీరన్నపూర్వ్యం పురుతమం సుదానమే విద్మాజస్య భోజనమినశ్చయదాసున్న గోపాకరామహే మాగిర్నయేనాసక్త్యాభియోషస్తవజేంద్రవిమదస్య చరిషే విద్మాహితే ప్రమదిం దేవదా విమదస్తే సంతు సఖ్యా శివాని ఓ